इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुरुषोत्तम शर्मा। आदौ मुख्य वार्ताः। सप्तराज्यानां त्रयोदश विधानसभाषनेष् कांग्रेस तृणमूल कांग्रेस दलाभ्यां चत्वारि आसनानि, भाजपादलेन द्वे आसने, आम आदमी डीएमके प्रत्येकं दलाभ्यां च एकं आसनं विजितम्। केन्द्रीय गृहमन्त्रिणा अमितशाहेन उक्तं यत् प्रशासनं देशस्य सीमवर्ति ग्रामाणां सर्वांगीण विकासाय प्रतिबद्धम् अस्ति। ऐषमः वित्तवर्षे प्रत्यक्ष करग्रहणे 19% वृद्धिः सञ्जाता। आयकरविभागेन वर्तमान वित्तवर्षाय प्रत्यक्षकररूपेण 45,000,000,000,000 रूप्यकाणि एकत्रितानि। मुख्यन्यायाधीशः डीवाई चन्द्रचूडः अवोचत् यत् विधेः अध्ययनं भारतस्य क्षेत्रीय भाषासु अपि भवेत्। ऐषमः वित्तवर्षे आयकरसंग्रहणे 19% वृद्धि सञ्जाता। अपि च लन्दननगरे विम्बल्डन टेनिस प्रतियोगितायाः महिला एकल अन्तिमचक्रे अद्य सायंकाले जस्मिन पौलिनी इत्यस्य स्पर्धा बारबोरा क्रीजिकोया सह भविष्यति। सप्तदश राज्यानां त्रयोदश विधानसभासनानाम् उपनिर्वाचनस्य परिणामः उद्घोषितः। इदानीं यावत् एकादश आसनानां परिणामः आगतः। कांग्रेसदलेन चत्वारि आसनानि, तृणमूल कांग्रेसदलाभ्यां त्रीणि आसनानि च विजितानि। पंजाबे आम आदमी पार्टी दलेन जालंधर पश्चिम विधानसभासने विजयोधिगतः। हिमाचलप्रदेशे कांग्रेसदलेन द्वे आसने, भाजपादलेन च एकम् आसनं विजितम्। पश्चिमबंगाले तृणमूल कांग्रेसदलेन त्रीणि आसनानि विजितानि। अन्येष् राज्येष् अपि परिणामोद्घोषणा अद्यैव भविष्यति। केन्द्रीय गृहमन्त्रिणा अमितशाहेन अद्य राजधान्यां नवदिल्ल्यां वाइब्रेंट विलेज कार्यक्रमस्य कार्यान्वयनस्य समीक्षायै उच्चस्तरीयोपवेशनस्य अध्यक्षता कृता। अत्रावसरे गृहमन्त्री अवोचत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे प्रशासनं देशस्य सीमवर्ति ग्रामाणां सर्वांगीण विकासाय प्रतिबद्धमस्ति। अमुना स्थानीय निवासिभ्यः वृत्तेः अवसर प्रदानं, सीमवर्ति ग्रामेभ्यः पलायनं वारयितुं च सहभागिता संवर्धनं सबलं प्रतिपादितम्। गृहमन्त्रिणा उक्तं यत् सीमवर्ति ग्रामान् निकषा नियुक्तैः केन्द्रीय सशस्त्र आरक्षिबलेन, सैन्यबलेन च सहकारी समितीनां साहाय्येन स्थानीय कृषि हस्तशिल्पोत्पादानां च क्रयं विधाय तेभ्यः प्रोत्साहनं प्रदातव्यम्। अपि च उक्तं यत् स्थानीय निवासिभ्यः अपि सैन्यबलेभ्यः विद्यमानानां स्वास्थ्य सौविध्यानां लाभः प्रदातव्यः। अस्मिन् उपवेशने केन्द्रीय गृहसचिवः अजय भल्ला, मन्त्रालयस्य अन्ये अधिकारिणश्च उपस्थिताः आसन्। अवधेयं यत् वाइब्रेंट विलेज इति कार्यक्रमस्य अन्तर्गतम् अरुणाचल, हिमाचल, सिक्किम, लद्दाख, उत्तराखण्ड राज्यानां 19 जनपदानां 47 प्रखण्डानां चयनित ग्रामाणां व्यापक विकासाय केन्द्र प्रायोजिता योजना विद्यते। सर्वोच्च न्यायालयस्य मुख्य न्यायाधीशः डीवाई चन्द्रचूडः अवोचत् यत् यदि विधेः सिद्धान्ताः सामान्यजनेभ्यः सरलशब्देषु नैवोपलप्स्यन्ते तर्हि विधेः कार्यक्षेत्रे विधिशिक्षायां च नैयून्यं वर्तते। असौ अद्य लखनऊनगरे डॉ राममनोहरलोहिया राष्ट्रिय विधि विश्वविद्यालयस्य दीक्षान्त समारोहं सम्बोधयति स्म। अत्रावसरे मुख्यन्यायाधीशेन क्षेत्रीय भाषासु विधेः शिक्षा प्रदानस्य आवश्यकता सबलं प्रतिपादिता। आयकरविभागेन वर्तमान वित्तवर्षाय प्रत्यक्षकररूपेण 45,000,000,000 रूप्यकाणि एकत्रितानि। ऐषमः वित्तवर्षे आयकरसंग्रहणे 19% वृद्धिः सञ्जाता। अस्य मासस्य एकादशदिनांकं यावत् 2,970,000,000 रूप्यकाणि च आयकरदातृभ्यः प्रत्यावर्तितानि। अवधेयं यत् अस्य मासस्य 31 दिनांकः आयकर प्रदानाय अन्तिमोऽवधिः वर्तते। संस्कृतवार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। सममेव अयं कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ newsonair चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी अद्य मुम्बय्याः गोरेगांव क्षेत्रस्य इंजीनियरिंग सर्विस कंपनी इत्यस्मिन् प्रदर्शनी केन्द्रे 400 कोट्यधिक 29,000 रूप्यकाणां मार्ग रेल जलपोत स्थानक परियोजनाः राष्ट्राय समर्पयिष्यति, आधारशिलां च स्थापयिष्यति। श्रीमोदी भारतीय समाचार सेवा सचिवालये आईएनएस इत्यस्य स्तम्भस्यापि उद्घाटनं सायं विधास्यति। स्वास्थ्यमंत्री जगतप्रकाश नड्डा अवोचत् यत् आयुष्मान भारत प्रधानमंत्री जन आरोग्य योजना अथ च आयुष्मान भारत डिजिटल मिशन योजनाः इच्छितान् उद्देश्यान् सफलतापूर्वकं पूरयन्ति। गतदिने नवदिल्ल्यां राष्ट्रिय स्वास्थ्य प्राधिकरणस्य वरिष्ठाधिकारिभिः सह स्वास्थ्यमन्त्रिणा एतासां योजनानां समीक्षा कृता। एकस्मिन् सामाजिक संचारपटले स्वास्थ्यमन्त्रिणा उक्तं यत् इदानीं यावत् 34 कोट्यधिकानि आयुष्मान पत्राणि जनेभ्यः प्रदत्तानि। एतेष् 7 कोट्यधिकपत्राणां माध्यमेन चिकित्सालयेष् प्रवेशस्य सौविध्यं प्रदातव्यम्। अस्मिन् वर्षे भारतदेशः नवम्बर मासस्य 20 दिनांकतः 24 दिनांकं यावत् गोवाराज्ये प्रथम विश्व दृश्य श्रव्य मनोरंजन शिखर सम्मेलन वेब्स इत्यस्य आयोजनं करिष्यति। अद्य नवदिल्ल्यां गोवाराज्यस्य मुख्यमंत्री प्रमोद सावन्तः अवादीत् यत् भारतदेशः विश्वस्य बृहत् चलचित्र निर्मातृ देशानां श्रेण्यां वर्तते। तेन एतदपि प्रोक्तं यत् वेब्स इति सम्मेलनं भारतस्य वार्ताभिकरणार्थं मनोरंजन उद्योगस्य उज्ज्वल भविष्यार्थं च महत्वपूर्णं वर्तते। कार्यक्रमं सम्बोधयन् सूचना प्रसारण मन्त्री अश्विनी वैष्णव अवादीत् यत् वेब्स इति सम्मेलनं भारतस्य मनोरंजन उद्योगस्य विकासाय महत्वपूर्णं भविष्यति। भारतीय सेनया लद्दाखे कारगिल विजय दिवसस्य रजत जयन्त्याः पूर्वं कारगिल हेलीपैड इति उदग्रयान निलये स्वीयं सैन्यबलं ज्ञास्यन्तु नाम्ना अस्त्रोपकरणानां प्रदर्शनी आयोजिता। अत्रावसरे सैन्यबलानां अधिकारिणः विद्यालयानां महाविद्यालयानां च एनसीसी प्रतिभागिनः अन्ये जनाः च उपस्थिताः अभवन्। इण्डोनेशियायां जावानगरे अद्य प्रातः दुरापादितायां बसयान दुर्घटनायां 6 जनाः मृत्युमुपगताः, 14 जनाश्च व्रणिताः। स्थानीय वार्ताभिकरणेन उक्तं यत् चालकाय निद्राकारणेन दुर्घटना अभवत्। दुर्घटनासमये बसयाने 20 यात्रिणः आसन्। ऋतुविज्ञान विभागेन आगामि 5 दिनेष् गोवा मध्य महाराष्ट्र गुजरात केरल दक्षिणान्तरिक कर्णाटक च मूसलाधार वृष्टेः अनुमानं प्रकटितम्। आगामि दिनचतुष्टये च तेलंगाना मध्यप्रदेश विदर्भ छत्तीसगढ़ेष् प्रबलवर्षा भवितुं शक्यते। सममेव ऋतुविज्ञान कार्यालयेन तटीयान्ध्रप्रदेशे पूर्वीय उत्तरप्रदेशे च प्रचण्ड वर्षायाः भविष्यवाणी कृता। नेपाले त्रिशूलनद्यां तरणरक्षकैः सैन्यबलानाम् आरक्षिबलानां च दलेन दुर्घटनास्थले द्वितीयदिवसेऽपि अन्वीक्षणाभियानं प्रवर्तितम्। अत्र 60 यात्रिणां बसयानद्वयं त्रिशूलनद्यां निपतितौ। लुप्तजनानां परिवारजनाः प्रभावि उपकरणानां माध्यमेन अन्वीक्षणाभियानस्य अभियाचनां कृतवन्तः। गतदिने सिमलताले भूस्खलन प्रकरणात् बसयानद्वयं त्रिशूलनद्यां निपतितौ। एकं बसयानं काठमाण्डूतः गौरस्थलं प्रति गच्छति स्म, द्वितीय बसयानं च बीरगंजतः काठमाण्डुनगरं गच्छति स्म। लन्दननगरे विम्बल्डन टेनिस प्रतियोगितायाः महिला एकल अन्तिमचक्रे अद्य सायंकाले जस्मिन पाओलिनी इत्यस्य स्पर्धा बारबोरा क्रेजिकोवया इत्यनया सह भविष्यति। भारत जिम्बाब्वे दलयोः मध्ये अनुवर्तमानायाः 20-20 क्रिकेट श्रृंखलायाः चतुर्था स्पर्धा अद्य हरारे नगरे प्रवर्तते। इति वार्ताः।